सर्वेभ्य नमस्कार। अद्य सिद्धांतकौमुद्य स्त्री प्रत्यय प्रकरण दशम पाठ नवंबर मासस्य विंशः दिनांकः एनाक्षरसमं नाम अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि नित्रयम् मुनित्रयं नमस्कृत्य अतरुक्तीः परिभान्ति च नैयाकरणसिद्धान्तकौमुदीं विरच्यते। सिद्धाणि इति सूत्रविषयः समाप्तः। सूत्रं कानिचन वार्तिकानि तैः ये शब्दाः निर्दिष्टाः तेभ्यः स्त्रियां नीप् भवति दृष्टम्। अग्रिमं सूत्रमस्ति यन्यश्च येयः च इति पदद्वयम् ज्ञाप्रातिपदिकात् इत्यधिकारः स्त्रियाम् इति अनुपसर्जनादिति यदि स्त्री अधिकारः विल् गो आन् टिल् द एण्ड् आफ् स्त्री प्रत्यय सो दे will not be mentioned in every sutra, but it is assumed that for every sutra from here, you will have these three adhikaras. Satah ajadyatashta vityatah atah iti anuvartate ranyebhyo neep vityatah neep iti anuvartate atah neep vidhayakam idam sutram yayantat striya neep syat yai iti pratyah tadhita pratyah तस्मात् तदन्तात् स्त्रीलिङ्गे नीप् प्रत्ययः भवति इति सूत्रार्थः। यन्तात् इति बालमनोवर्णायाम् यद्यपि टिड्ढाणै इति पूर्वसूत्रे एव यञ् ग्रहणं कर्तुम् उचितम्। If you remember, in the Sutra Tidhani, he has just given a list of pratyayas, that is an, I, etc. So this Sutra is telling, for yain, there is neep. So why not include it in the same list as Tidhani? It's an obvious question. When you have a list of 11 pratyayas, add one more. And over. Why a separate Sutra for yainshta? Yadyapi Tidhani, in the Purva Sutra eva, yai grahanam kartum uchitam. तथापि राजांष्ठदर्थितः इति उत्तरसूत्रे यन्यः एव अनुवृत्तये पृथक् सूत्रम् इति भावः। तद् नेक्स्ट् सूत्रं राजांष्ठदर्थितः सेस् ययन्तात् विकल्पेन ष्ठप्रत्ययः भवति। सो दट् सूत्र रिक्वैर्स् अप्लैस् ओन्ली टु यञ्। इफ् दिस् यञ् इस् मेड् अस् अ पार्ट् आफ् टिड्ढाणै, Panini would have to make a separate mention of yai anyway for the next sutra. So instead he just puts it as a separate sutra and takes it as an anuvratti from there. So this sutra and the next one and the one after that, the three sutras will apply only to yai or yayanta, words which end with the suffix yai. Akara lope krute chaste. So, Ishana has not yet mentioned what is the example he is taking here. So, we go into the Vakhyana. Akara lope krute. Okay. Garhi iti udaharanam vakshyati. So, Balamanorama makes it very clear. Because the actual udaharana in the Kaumudi comes from three sutras later. He covers some intermediate sutras and then finally he gives the example. So, till then we will not even be able to understand what he is talking about. सो हि सेस् गार्गी इति उदाहरणं वक्ष्यति। सो गर्गस्य अपत्यं स्त्री इत्यर्थे गर्गादिभ्यो यञ् इति यञ्। सो दिस् इस् अयन्त आन् गर्गशब्द वि आर् एडिङ्ग् द सफिक्स् यञ् दर् इस् गर्ग इय यञ्तस्य इत्यत्र यकारस्य हलन्त्यम् इत्यनेन इत्सम्या लोपः गर्ग इय इत्यस्ति गर्गादिभ्यो यञ् इति यञ् आदिवृद्धिः कथितेश्वचामादेः इत्यनेन नीति नीति च प्रत्यये परे आदेन वृद्धिः भवति. सो द गर्ग बिकम्स गार्ग. अकार इज रिप्लेस्ड बाय आकार बाय वृद्धि. सो इट बिकम्स गार्ग य आदिवृद्धि यस्येति च इति गकारात् अकारस्य लोपः. सो द एंडिंग अकार इज रिमूव्ड बाय यस्येति च. सो यू हैव गार्ग य इट बिकेम गार्ग्य. नो गार्ग्य शब्दात् नीपि. यू आर राइटिंग नीप बाय ययश्च. ययश्च इति सूत्रेण गार्ग्य इत्यस्मात् नीप प्रत्ययः क्रियते. नीप प्रत्यये ईकारः शिष्यते. गार्ग्य ई इत्यस्ति. गार्ग्य शब्दात् नीपे हलस्तथितस्य इति यकारलोपात् परत्वात् यस्येति च इति यकारात् अकारस्य लोपे कृते सति प्रक्रिया वक्ष्यते इत्यर्थः. So the next sutra which she will take up is halastathitasya. So before that, paratvata yasya tika ityanena akarasya lopa. Ikarasya akarasya cha lopasya tathite ikarecha pare. So when followed by an ikara, the previous akara, the akara of gargya, the ending akara of gargya gets deleted. So that is what he means by akara lope krute. Gargya e ityasya. Tatra akarasya lope gargya e iti bhavati. इदानीं किं भवति गार्ग्य ई इत्यस्यां दशायाम् इति दर्शयन्ति दीक्षिताः. अकारलोपे कृते अग्रिमं सूत्रमस्ति हलस्तद्धितस्य. हलः तद्धितस्य इति द्वे पदे सूत्रे. सो दिस् डस् नाट् बिलोङ्ग् टु सी प्रत्यय प्रकरण ओब्वियस्लि. दिस् इस् अ सूत्रणेन प्रक्रिया. सो ढे लोपो अकद्रवाः इत्यतः लोपः इत्येन वर्तते. यस्येति च इत्यतः ईति इति. सूर्यदिष्यादस्य वृक्षाणां य उपधायाः इत्यतः य उपधायाः इति अनुवर्तते. सो इट्स् यत् हलः परस्य तद्धितयकारस्य उपधाभूतस्य लोपः स्यात् इति परे. सो यः गार्ग्य ई सो गार्ग य अ ई इत्यस्ति. सो तस्यां दशायां गार्ग इति गकारः हल्. सो ग इज अ कन्सोनेंट. तस्मात् परः अस्ति तद्धितयकारः. सो दिस् यकार इस् फ्रम् द सफिक्स् यञ्. यञ् इति तद्धितप्रत्ययस्य यकारः. अतः तद्धितयकारः हलः परः तद्धितयकारः उपधाभूतः अकारः अस्ति. यद्यपि यस्येति च इत्यनेन लुप्तः तथापि स्थानिवद्भावेन अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावेन आनीयते. अतः अकारः अस्ति यकारः उपधाभूतः. अलोन्त्यात् पूर्व उपधा. द लेटर् प्रिसीडिङ्ग् द लास्ट् लेटर् आफ् अ पार्टिकल् इस् काल्ड् उपधा. सो यकार इस् इन् द उपधा कन्सिडरिङ्ग् द अकार. सो इट् इस् प्रिसीडेड् बै अ हल् एण्ड् इट् इस् फालोड् बै ए अकार. दट् इस् इट् इस् इन् द उपधा. हलः परस्य तद्धितयकारस्य उपधाभूतस्य लोपः स्यात् ईति परे. ईति नाम ईकारे परे. गार्ग्य ई इति ईकारपरकत्वमस्ति. अतः सः यकारः लुप्यते. गार्गी इति रूपं. गार्ग्य ई इति स्थ्यते यकारस्य लोपे. गार्ग ई गार्गी. गर्गस्य अपत्यं स्त्री. द डाटर् आफ् गर्ग इत्यर्थे गार्गी इति रूपम्. सो दट् इस् एन् एक्साम्पल् फार् ययश्च. सो गार्गी इस् एक्साम्पल् फार् ययश्च. नीप् बै ययश्च. ययन्तात् स्त्रियां नीप् स्यात्. नो दट् इस् ग्रामाटिकल् रिलेटेड् टु इट्. अनपत्याधिकारस्थात् न नीप्. नीप् बै ययश्च applies only to the yang pratyaya which is being told in the apatyadhikara. Apatyadhikara again is a part of tadhita. There are many adhikaras in the tadhita. The apatyadhikara is one of them. Tasya apatyam iti sutra dharabhyam apada parisamapti ayam adhikara rachyati. So from 4192 till the end of that pada, which is 41178, we have the apatyadhikara. So, the yai which is given by a sutra within this adhikara,
So such ayantas will get neep.
So the udaharanam pradarshyate dvipe bhava dvaitya. He who resides in an island. Ityarthe dvipad anusamudram yen iti sutrena yen pratyayah kriyate. Sah pratyayah apatyadhikare nasti. Okay, so it is 4, 3, 10. It does not fall within the apatyadhikara. And therefore, there is no neep here, and there is tap. Neepaha bhave, adarjitash tap. Tap bhavati. Dvipe bhava. Okay, vaitya. Dvipa ityasmata yai pratyaha. Dvipa ya ityasti. Adivrithau dvaipa ya. Isyadichaya vyakara lope dvaipya. Adarjitash tap. इत्यनेन तापि कृते वैत्या इति रूपं भवति तत्र नीप न भवति कुतो न भवति इदं वार्तिकमस्ति अनपत्याधिकारस्थात् अपत्याधिकारस्थः यः यञ् तदन्तादेव नीप तद्भिन्नात् नीप न भवति ययन्तादपि नीप न भवति इत्यर्थः अधिकारग्रहणात् नेह देवस्य अपत्यं दैव्या Vartika says, anapatya adhikaratha. It does not say anapatya artha. It says apatya artha to mean apatyam. Dasyasasya apatyam or gargasya apatyam is apatya artha. But he says apatya adhikara. That is that which falls within the adhikara. So there are some sutras which, some pratyas which can be applied in apatya artha. But they do not fall under the sadhikara. The sutra is not given under the sadhikara. So, tena sutrena yadi yin pratyaha bhavati, tadhi tatra api neep na bhavati. Sutram, apatyarthe yin pratyaha, apatyadhikarasthena sutrena vihitasyat. The yin should be given by a sutra which falls within the apatyadhikara. Tatha, anyam udaharanam, अन्यद् उदाहरणं प्रदर्शयति अधिकारग्रहणात् नेह देवस्य अपत्यं दैव्यात् देवाद्यैनौ इति वार्तिकम् इति यै प्राग्दीव्यति यः न तु अपत्याधिकारपतितः दिस् इस् एक्चुलि अ वार्तिक प्राग्दीव्यतोन् इति अधिकारः अस्ति सो द अधिकारः कम्स् बिफोर् तस्य अपत्यम् अपत्याधिकारात् प्राक् प्राग्दीव्यतोन् इत्यधिकारे दित्यदित्यादित्यपत्युत्तरपदान्यः इति सूत्रे सो दिस् सूत्र नम्बर् इस् 4185 पठितम् इदं वार्तिकम् सो दिस् वार्तिक बिलाङ्ग्स् टु 4185 विच् फाल्स् औट्सैड् अपत्याधिकार यद्यपि अपत्यार्थे अत्र यञ् अस्ति देवस्य अपत्यम् इत्यर्थे एव यञ् किन्तु अपत्याधिकारे नास्ति सो वै इस् इट् नाट् एन् अपत्याधिकार एण्ड् आल् अतः अस्मात् नयन्तात् नीप् न भवति तावेव भवति अग्रिमं सूत्रमस्ति काचां पद्धितः त्रीणि पदानि येयः इति अनुवर्तते ययन्तात् ष्फः वा स्यात् स्त्रिया स च तद्धितः सो दिस् इस् एन् आप्शनल् थिङ्ग् द फस्ट् वन् वाट् वी हेड् नीप् विच् इस् फैन् इदानीम् अपरः प्रत्ययः विधीयते विकल्पेन प्राचाम् इत्यस्य विकल्पेन इत्यर्थः विकल्पेन ष्फ इति प्रत्ययः विधीयते स च तद्धितः एण्ड् दट् ष्फ शुड् बि डिसिग्नेटेड् एस् अ तद्धितः Tathita Pratyaya is normally one which falls under the Tathita Adhikara. It starts later in the same part. This sutra is not in the Tathita Adhikara. But he is specifically mentioning that the Shpa will be a Tathita Pratyaya. So there is a reason why he wants it to be Tathita. So let's see. So Gargya Ityasti Gargasya Patyam इत्यर्थे गर्गशब्दात् गर्गादिभ्यो यञ् इति सूत्रात् यञ् इति प्रत्ययः भवति गर्ग य आदिवृद्धिः इत्येति जायति अकारलोपः गार्ग्य इति रूपः. सो गार्ग्य इत्यस्मात् अनेन सूत्रेण ष्फ इति प्रत्ययः भवति. गार्ग्य ष्फ ष प्रत्ययस्य this is one of the it samya sutras. We already studied a few. Studied upadesha yadranasika ek halantyam chutu lashak padadhite etcha. So this is one more shas pratyasya upadesha yadranasika it ityatah it itena vartate adit etadavah itatah adihi itena vartate pratyasya adihi shah ityat. So shakara it is at the beginning of a pratyaya will be called it. We have so far not seen any pratyayas which begin with the shakara. So now he says that pratyaya which begins with sha, the sha will get it samya. So gargya ityasmat shpa, there is a typing error, it is not shpa, it is shpa, mahaprana, phakara. शकारः इत्सम्यकः तस्य लोपः इत्यनेन लोपः गार्ग्य फ इति भवति. ततः आयनेयीनीयः फढखझघां प्रत्ययादीनाम् इति सूत्रम्. सो इट् हेस् त्री वर्ड्स्. देर् इस् नो प्रोब्लम् इन् फिटिङ्ग् द वर्ड्स् बट् विदिन् द वर्ड् आयन् एय ईन् ईय इय. सो बि वेरि केर्फुल् अबौट् लर्निङ्ग् द सूत्र. When learning, you have to learn it properly. Otherwise, it will lead to lots of confusion later. Pratyaya, which is widely used in prakriyas, it is very simple. It just gives a direct adesha for a few letters. But unless you remember it properly or learn it properly, you will not be able to know what is an adesha for what. There can be confusions both in the first word and the second. So, pha, dha, kha, cha, gham. So there are five letters. So for these five letters, these five will be the adesha pratyayadinam. And they are at the beginning of a pratyay. So pratyayadibhutanam phadinam kramat ayannadayah adeshah sivu. Yatha sankhya paribhashaya pramena annayah. So there is a phakara at the beginning of a pratyay. It is replaced by ayann. If there is dha, it is replaced by ay. If there is kha, it is replaced by een. It is ch, it is e, and if it is gh, it is e. So these five are the adeshas. It is known as a very simple sutra. So pratyayani bhutanam pradi fadinam kramat ayannadayah adeshah syuhu. Ranim kima sti gardya kha itty asti. Phakaraha pratyayasya adav asti. Tasya sthane ayan itty adeshah. The akara will remain. Only the pha, the single letter, will be replaced by ayan. So, ayana iti bhavati. Phakarasya ayan iti adeshe. Ayaniniya iti nena. Gargya ayana iti asti. Yasyatika iti nena akarasya lopaha. Gargi ayana. Gargya ayana iti jatam. Kathitantarvat pratipatikattam. So this is the reason why he made it a tadhit. Rajam shpa tadhitaha iti chaya. Kimartham shpa iti chaya tadhitattvam iti chaya. The pratipadikatva sadhanartha. So this needs to be a pratipadika. So to make it a pratipadika, we need kritadhita samasashtha. Tadartham shpa pratyaya tadhitaha iti visheshena uttam. So pratipadikatva sati. क्षिप्रसामर्थ्यात् क्षिपेण उक्तेऽपि त्रित्वे षिद्गौरादिभ्यश्च इति वक्ष्यमाणः ईश. नो इन् दिस् क्षप प्रत्ययम् द शकार इस् इत् इत्संज्ञया तस्य लोपः. इत्संज्ञायाः किं प्रयोजनम् इति प्रश्नः. ऑल्वेस् इन् ग्रामर् वेरेवर् अ पार्टिकल् इस् रिमूव्ड् बै इत्संज्ञा, it has to satisfy some prayojana. There has to be some reason why some letter is being given the itsamya. It is not just a play. I mean, he cannot just put a letter in there and send it away. It is never heard in prayoga, it is true. But there is a reason why it was there.
and why it went away. Now, Panini, if he just wanted to get the form Vyajnayana, he could have said Pratham Ha. He is specifically mentioning that Shakara, and that Shakara is being given the Itsamya. Kim Prayojanam? It is Prashna. Shrit Gauradibhyashta, it is Sutra Maste Agre. So, we'll see that in the Sri Pratyaya Prakarana itself. Shit, if a particle is Shit, Shakara, Murdhanya Shakara being it, then it gets Nish Pratyaya. The Sri Pratyaya will be Nish. So, this Shpa, the Shitva, Kamarthyata, Nish Pratyaya Bhavati. Because it is Shit, even though Shpa itself is a Sri Pratyaya, you never add two Sri Pratyayas. I mean, you either add tap or neep or niche. You cannot add tap and neep or tap and niche. It makes no sense. Because there is one, there should be one suffix to indicate the femininity, and it can be any of those. Now, the suffix shtha is already indicating stripa. So there is actually no necessity for another stripratyaya. Hindu, shitva samarthya, shakaraha itsamyakaha asti, tasya kim prayojanam. तस्य सामर्थ्यात् श्फेण उक्ते अपि स्त्रीत्वे यद्यपि श्फ प्रत्ययः स्वयं स्त्री प्रत्ययः तेनैव स्त्रीत्वस्य द्योतनं भवति तथापि शिद्गौरादिभ्यश्च इति वक्ष्यमाणः नीश् अत्र नीश् प्रत्ययः अपि भवति सुगार्ग्यायन इत्यस्मात् नीशि गार्ग्यायन ई इत्युक्ते यस्यति च इति अकारलोपे गार्ग्यायन ई अट्कुप्पाणं व्यवायति इत्यनेन णत्वे गार्ग्यायणी इति रूपम् गर्भस्य अपत्यं स्त्री इत्यर्थे एश्च इत्यनेन ङीपि गार्गी इति रूपम् प्राशाष्प तथ्यतः इत्यनेन ष्फप्रत्यये ततः क्षिद्गौरादिभ्यश्च इति नीशि गार्ग्यायणी इति अपरं रूपम् देयर आर् टु फार्म्स् केन् ईदर् बी गार्गी आर् गार्ग्यायणी एवं सूत्रमस्ति सर्वत्र लोहितानि कथन्तेभ्यः परद्वयं सर्वत्र लोहितानि कथन्तेभ्यः एश्च इत्यतः यन्यः इति अनुवर्तते प्रथमं श्फ तद्धितः इत्यतः श्फ तद्धितः इति अनुवर्तते सर्वत्र इति सो प्रीवियस् सूत्रम् इति प्राचाम् इट् इस् ओन्लि इन् द ईस्टर्न् बिकास् इट् वास् एन् आप्शन् But here he says sarvatra. So sarvatra it is pratike. Vyakhyana. Lohitadihi gargadyantarganaha. So we have gargadibhyo yaya. Yaya pratyaya by gargadi. So gargadi is a gana. Now lohitadi is an antargana. It is a subclass of gargadi. That is, there is a set of words in the gargadi gana. The Lohitadi Gana is an Antargana. This is a subclass of Gargadi. So, Tatra, Gargadi Antargana. Lohita Shabdat. Lohitadi Gargadi Antargana. Lohitaha Adihi Yesham Iti. ततः अन्तः येषाम् इति च विग्रहः सो स्टार्टिङ्ग् फ्रम् लोहित टिल् द वर्ड् कथ कथन्त सो इट् शुड् एक्चुलि बि कथान्त सो देर् इस् आल्वेस् अ कन्फ्यूशन् रिगार्डिङ्ग् दिस् इस् इट् कथान्त आर् कथन्त बिकास् कथ अन्त इफ् यु डु सवर्णतीर्थ इट् शुड् बि कथान्त बट् इट् इस् नाट् कथन्त इत्यत्र शकन्धादित्वात् पररूपम् इट् इस् अ पररूप हियर् लैक् यु हर् शक अन्धुः शकन्धुः शकन्धादिषु पररूपं वाच्यं वार्तिकम् अधीतम् अर्थन्ति प्रकरणे सो हियर् आल्सो वै दट् वार्तिक दिस् इस् पररूप सो दिस् इस् आल्वेस् कथन्तेभ्यः एण्ड् नाट् कथान्तेभ्यः सर्वत्र लौकिकादि कथन्तेभ्यः ययः इति अनुवृत्तं बहुवचनान्ततया परिणम्यते प्राचांश्व तथ्यतः इति सूत्रं प्राचां वर्जम् अनुवर्तते सो अदर् देन् प्राचां सो दट् अदर् टु वर्ड्स् फतथितः इति अनुवर्तते सर्वत्र इति सर्वेषु मतेषु इत्यर्थः नित्यम् इति यावत् सो इट् मीन्स् कम्पल्सरिलि मीन्स् अकार्डिङ्ग् टु इन् आल् views sarvatra sarveshu mateshu ityartha. So lohitaribhya tatashabdantebhya yayantebhya nityam shbhah syat. So there is a compulsory shbha pratyaya. So, Ravichandran ji, you have a question? Have a question? But why is that sarvatra required in prasamshkrita siddhama? But it is because it's an optional way. Sarvatra, it is prasamshkrita siddhama is vaikalpik. It should not apply everywhere. It apply, if it applies everywhere, you will not have the form gargi. You need a gargi and gargyayani. Both forms are correct. So it is optional. So, I mean, just tell me which comment you find it, because the Balamanorama does not have any mention of it. Because there should be a reason why they do apakarshana. So, I'll look it up. So as you can see, that is an optional sutra and this is compulsory. That is, there is no optional form. So, lohitaribhyaha, katashabdantebhyaha, yayantebhyaha, nityam shpaha syat. Lohityayani. So if you look at the Vyakhyana for its derivation, Lohitasya apatyam stri iti vigraha. So Lohitahi, the first word in this subgana, that is the subclass or antargana, is Lohita. Lohita shabdat gargadi yayantat shpaha. So first we do gargadi kshom yaha. So it becomes Lohita ya adivirthau akaralope lohitya iti bhavati. So, lauhitya ityasmata shpaha. Sha iti shakaraha shahpratyasya ityanena ikkamyam prapnoti pakarasya ayan. Ayaniniya phalkajabham pratyadinam ityanena pakarasya sthane ayan nadesha. So, you have lauhitya ayana. Yasya ticha iti yakara nakarasya loha. So, you have lauhitya ayana. Lauhitya ayana ityaste. Tathita itya penavrattehe shittvata nish. So there is shittva and there is nish, pratipadikatva, nish bhavati. So lauhityayana ee, this thing. Punaha yasyetisa yakara lope, lauhityayani, iti rupam. Evam, katyayani, katasya apatyam stri. So katyayani is a very famous name for Gauri or Parvati. She was born in the Katha Gotra. Katha is a rishi. So, gotra apatyam. So, katasya apatyam stri. Ityathe, kata ityasmat gargadibhyo yai iti yai. Yayantat shpaha, shphantat nish. So, there are three pratyas there. There is yai, which is the katya. The first ya is from yai. Next, the ayan is from shpha. And the e is from nish. So, there are three pratyas in a sequence there. So, the form is katyayani. अग्रिमं सूत्रमस्ति कौरव्य मांडूकाभ्यां च. तदर्थं प्राचां शुभ तथितः इत्यतः शुभ तथितः इति अनुवर्तते. आभ्यां शुभः स्यात्. फॉर दीस टू वर्ड्स देयर इज शुभ. So they are taken separately because they are not yayantas. They do not belong in the gargadi gana and they are not yayantas. Yayantatvam nasti. Ataha prithal uchyate. Yayantatvam bhavepi shpa pratyaha bhavati. Kramena tab nishor apavadaha. This is for Kauravya, there should have been tab. So the question is, what would have happened in the absence of this sutra? They are not yayantas. Ataha yayashtayati nitna bhavati. Kim bhavati? Iti prashnaha. Tab nishoha apavadaha. Kurvadibhyonyaha iti kuru shabdata niya pratyaha. So we have kuru
य आदिवृद्धौ कौरु य एंड देन देयर इज गुणा एंड कौरो य एंड देयर इज अवादेश बै वांतोई प्रत्यय सो देयर इज कौरव्य सो Kauravya ityasmatra.
If in the absence of this particular sutra, adhyadhyatashtap ityanena tap bhavatisma. So there should have been tap. So tapaha apamadatvena adhrashpa pratyaha vidhiyate. Shpa iti krate kauravyayana iti bhavati. Shitvata nish. Shidravaradhyashta iti nishi. Kauravyayani iti rupa. In case of manduka, manduka, Dhakchamanduka ityanna. So it is there should have been anna pratyaya by Dhakchamanduka. Now the question is if it is annanta, tidhana ityanena neep bhavet kila. It should have been tap neepor apavadaha. Why is he saying tap neeshor apavadaha? Question. So he says, Gotrancha charanai saha iti jatitvat jateva stri vishayat iti neesh praptaha. So in the absence of this sutra, it is a jati. We'll see this sutra later again. Jate raste vishaya layopadha, where a gotra is also considered as a jati vachaka, and therefore from that sutra there would have been nish. Okay. So, as an apavada to that nish, he is giving shpa. So, shpa prateya krute punaha nishi, and then there is nish by shidgavaradi bhyashta. So, there is shpa followed by nish. So, the form is mandukayani. Kauravyayani, Mandukayani, iti rupa. So there are only two forms which are being given by this sutra. Kauravya, Mandukabhyam, cha. Asure Rupasankhyanam, iti vatatikam. So, Asurayani, iti udahananam. So, the vatatikatara is adding one more shabda, Rushpa. This is Asuri. Asurayani, asurasya apatyam stri iti vigraha, the daughter of an asura, therefore, ata iyam, ityanena, apatyarthe iyam pratyaya. Just like we have dasharathasya apatyam dasharathi, asurasya apatyam asurihi iti bhavati. Asura ityasmat iyam pratyaya, adivadrihi, so we have asuri, shpaha, asure rupasankhyanam iti vaptikena shpaha, shra itu, Ayana. So it is Asurayana. Yasyetita. So the Asurayan, Asuri, etyatra, Ikaraha, Lupyate. So it becomes Asurayana. Shritvat Nish. Shidgauradhyashta. It is Uttrena Nish. So Asurayana, E. Yasyetita, Akipunaha, Akarasya Lopaha. Asurayani, Lakpam. Trepam Nivitti Kruthya. अटको कामों में वाये थी इतने ना लक्ष्य आसुरायनी इति रूपों तो इट इज एडिंग वन वर्ड टू इट नथिंग वेरी स्पेशल अबाउट द वाक्य वयसि प्रथमे इज द नेक्स्ट सूत्र अगाध्य तष्टा इत्यतः अतः इति अनुवर्तते वृन्नेभ्यो नीप इत्यतः नीप इति अनुवर्तते So, Vayasi Prathame, it's an interesting discussion in the commentary. So, the meaning of this is obvious, Prathame Vayasi. So, in the first age, it is not the first year, it says the first age. So, what are the classifications of age? What is it? So, Praninam Kalakrita Avastha Visheshaha Vayaha. So, what is Vayas? What is age? Prashnaha. Praninam Kalakrita Avastha Visheshaha. So there is a difference in the organs, in an organism, based on time. Okay, so then you have a baby, so its organs develop and it develops into a young man, and the organs, they develop and finally they start deteriorating and then there is old age. So there is a avastha vishesha based on kalakrata. So it is a function of time. So praninam कालकृत अवस्था विशेषः वयः तच्च कौमारं यौवनं वार्धकं च इति त्रिधा सो दैट इज डिवाइडेड इनटू थ्री काइंड्स कौमार यौवन वार्धक So childhood, adulthood, or yavana is actually youth or adulthood, and vardhaka is old age. It is tridha. So it is of three kinds. So a very famous shloka. Pita rakshati kaumare, bhartha rakshati yavane, putrastu sthavire bhave. So that he gives three divisions. So kaumara, yavana and sthavira. This is vardhaka. So that is one kind. Iti darshanat. Chaturvidham vayaha ityanye. There are some other people who consider that age is divided into four. So there is another shloka. This one. Adye vayasi nadhitam. द्वितीये नार्जितं धनं तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति. सो इट सेज आद्ये वयसि न अधीतं. वेरी नाइस सुभाषित. द फर्स्ट एज दिस इज ड्यूरिंग द चाइल्डहुड एंड दिस न अधीतं. वन डिड नॉट स्टडी. सो इट इंप्लाइज दैट द फर्स्ट एज इज फॉर लर्निंग फ्रॉम मोमेंट अ चाइल्ड इज बॉर्न टिल इट अटेन्स यौवना. It is a constant age of learning, whether it is learning to live or whatever, the artificial adhyayana. So everything, that is the age to study. So adhyaya vayasi na adhitam. So there was no study in the first. Dvitiye dhanam na arjitam. The next age is meant for earning and satisfying the desire, kama. Artha and kama come in the next age. So dvitiye dhanam na arjitam. Tritiye na tapastaptam. The next, as the person starts aging, he should turn towards spirituality or self-realization. Tapaha, penance is prescribed for that age. Tritiye na tapastaptam. And he did not do penance. Chaturthe kim karishyati. So what will happen in the fourth stage? That is, whatever is prescribed for that stage should be done. When he has not done anything, the final stage is meant for sannyasa and moksha. So what will he do? I mean, even that will not be achieved. Yathe Subhashitam. Tatra prathame dvitiye dvitiye chaturthe iti chaturtha vayaha iti vibhakta. It does not mention what they are called as, but it divides the lifetime of a person into four. So in either case, prathame vayasi always refers to balya or childhood. Iti darshana. Prathame vayasi ityanantaram vidyamanad iti sheshaha. सूत्रे प्रथमे वयसि विद्यमानात् इत्यर्थः अजाद्यतृष्णा पितरः अतः इत्यनुवृत्तेन प्रातिपदिकात् इत्यस्य कृतं विशेष्यते. तदन्तविधिः स्त्रियाम् इति अधिकृतं वृन्नेभ्यः इत्यतः नीप् इति अनुवर्तते. सो आल् दट् वि सॉ तदा प्रथमवयोवाचिनः इति. सो द सूत्रार्थ विल् बि प्रथमवयोवाचिनः अदन्तात् स्त्रियाम् नीप् स्यात्. So, a word which indicates the first age, prathamavayaha. Tasmat adantat, if it is a hasvakaranta, strilinge neep pratyaha bhavati ityarthaha. Kumari, iti udaharanam. Kumara ityasmat, kumara shabdasya apradhur bhuta yavana ityarthaha. So, when the youth has not yet set in, such age is called kaumara. So there are again different questions as to when kaumara ends and when yavana begins. Some people say it is kaumara till 12, till 14. Okay. So there are different ages. But kumari is a girl. So kumara ityasmat neep pratyaye kumara e ityasya yasya pisa iti akara lope kumari iti rupam. Actually bala should have got need by Vaisitrathame. That is why in Ajadyatashta, him bala vatsa hodha manda vilata, esho Vaisitrathame iti neep praptaha. So, Diksha says there should have been neep by Vaisitrathame. Because it indicates the first childhood, first age. Kinta Ajadigane paathat. Ajadyuktihi neeshaha neepashtra badhanaya. So, inclusion in the Ajadigana will overrule this neep. That is why we have bala, balika, we have ta instead of neep. So kumari iti vayasi prathame ityasya udaharanam. Vayasya sarama iti vachyam. So the vatikagara makes a correction. He says it's not only the first age, acharame vayasi. This is other than the last age. This is for the both the first and second, or first, second, third, whatever you take. So for both Kaumara and Yauvana, he says this will apply. Vayasya charama iti. So charamam nama antyam vayaha, the last age. Tadbhinnam acharamam. So other than that you have acharama. Prathame iti apaniya. So in the sutra, vayasi prathame ityartha, prathame iti apaniya. Acharame iti vaktavyam. So Panini should have said vayas yacharame and not vayasi prathame. Vai kimartham ityataha vadhuti chiranti. Two examples he is giving where there is neep. Vadhuta it is shabdati neepi, vadhuti iti bhavati. Chiranta shabdati neepi, chiranti iti bhavati. Vadhuta chiranta shabdav yavvanam asanam. So vadhuti and chiranti it is a yuvati. It means a young woman. So, Yauvanamachi, here it is not Prathamam Vayaha. Still there is Neep and there is no other sutra which can give Neep. So, the Vatikatara says, Anenaiva sutra na Neep bhavati vayas yacharame iti vaktavyam. Atah kim shishuhu. Adanta Prathamam Vayavamachi na Adanta Sriyam Neep bhavati iti uttam. Only if it is an akaranta. So, why? Shishuhu is this, the Uparanta Shabdaha. So since Prathama Vayam Asitvesi, even though it indicates the Prathama Vaya, it is not Rasvakaranta. And therefore, there is no Neep. Pullinge api, Srilinge api, Shishuhu ityeva rupam. There is no Sri Prathaya being added there. Kanyaya na, Kanyaya kanina cha, it is a creation. There is one more word, Kanya. So that also indicates, like Kumari, it is a girl. Tatrapi neep praknoti, kintu nabhavati. Kanyaya kaninaca, iti nirdesha. Panini has used the word in a sutra called Kanyaya kaninaca, but he has used it as tabanta, being kanya, and there is no neep. So, because of the pramana of Paniniya prayoga, using Panini's usage itself as a pramana, there is no neep there. So, kanya deva prasam. So, we stop here for today. Any questions? Yes. Niyamatka, what niyama? Yeah. True. Yes. So it is not the avakashana. So that is what. Okay. Yeah, yeah, okay. That is what it will finally come in. Whenever we are using such things, since Ajadi is an Akriti Gana, we put it in the Akriti Gana. But again, to put it in the Akriti Gana, we need some pramana on why we are doing it. So he says, Panini himself has used the word. So, we say it is Panini. It is not rule, but I mean you cannot simply do it. It is not arbitrary. There has to be some strong pramana, like Shishta Prayoga. By pramana it is always Prayoga Pramana. There should be a Prayoga which needs to be justified. Shishta Prayoga. So it is only for that we expand Gana. So here he is showing that Panini himself has used it, so we use such a Prayoga. So what we do is generally, if it is some other Prayoga, then prayoga by other shishtas, we put it into the Gana and substantiate it. But if it is prayoga by Panini or Bhashyakara himself, we take that as a direct pramana. We assume, I mean, Vyakarana assume that does not need any other pramana. So, we take the prayogas of Munitraya itself as pramana. And therefore, there are many cases we say Nirdeshat. Because of Panini usage or because of Bhashyakara's usage, we simply accept it. assuming that it does not need any other stamp of Vyakarana, because they are Vyakaranas themselves. So there are two ways where they are teaching the right things. They either make the rules, but more than the rules, they, by their prayogas, they show what is the correct usage. That is the outlook. Yes, he says about the dviti or of this dharta. So you are saying what is that? The dvivarshastri exists. So there is a question. Dvivarshastri. So a woman or a child, girl child, which is 2 years old. Okay, when you are saying dvivarsha, so it refers to the age, and it is the first year because it is 2 years old. So will we have need there by Vaisikrasame is a question. So Dvivarsha is not a Vayovachi Vais. I mean, it, the Vayas, that is why the commentator defined Vayas initially. He said, Praninam Avastha Krita, Kala Krita Avastha Visheshaha. So Dvivarsha can apply not only to Pranis, it can be anything. It can be a school, it can be a house. A house 2 years old, when you are saying that and you are saying vayaha, it is different. I mean, even though we translate it as the same thing, it is 2 years old. Well, in English it is the same, whether it is a house or a child or a man, it might be the same. But in Sanskrit it is wrong to say that tasya shalayaha vayaha, whatever, two, it is not the age. Okay. So because the vayaha refers only to prani, praninam kalakrata avastha vishesha vayaha. So here dvivarsha is just referring to a time and it is not referring to vaya as such, and therefore there is no need there. Okay, any other questions? So Ravi Chandanji will discuss about your questions before next class.
महेश्वरात् कृत्रिम व्याकरणं प्रोक्तं तस्मै पाणिनये नमः मुनित्रे नमस्कृत्य तदुक्ति परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते।